इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। मुख्य निर्वाचनायुक्तस्य ज्ञानेश कुमारस्य नेतृत्वे अद्य आयोगस्य दलेन गुप्तधनस्य मद्यस्य मादकद्रव्याणां च समाह्वानं निवारयितुं विभिन्नप्रवर्तन संस्थाभिः सह चर्चा कृता। प्रधानमन्त्री नरेन्द्रमोदी पश्चिमबंगालराज्यस्य दार्जिलिंग जनपदे संजातायां 20 जनानां मृत्युघटनायां दुःखं प्रकटितवान्। नेपालदेशे संजाते प्रचण्ड वृष्ट्या भूस्खलनेन 47 जनाः मृताः। विश्व पैरा एथलेटिक्स चैंपियनशिप प्रतियोगितायां भारतस्य पैरा क्रीडकाः उत्कृष्ट प्रदर्शनेन 18 पदकानि समर्जितवन्तः। अपि च क्रिकेट क्रीडायां अद्य आईसीसी महिलानां एक दिवसीय क्रिकेट विश्व चषक स्पर्धायां कोलंबो नगरे भारत पाकिस्तान देशयोः मध्ये स्पर्धा सम्प्रति प्रचलति। अथ वार्ताः विस्तरेण। बिहार राज्ये स्वतन्त्रं निष्पक्षं शान्तियुतञ्च विधानसभा निर्वाचनं सुनिश्चेतुं निर्वाचनायोगेन अद्य पटनानगरे विभिन्नानां प्रवर्तन संस्थानाम् अधिकारिभिः आरक्षकाधिकारिभिः केन्द्रीय आरक्षकाधिकारिभिः वरिष्ठ प्रशासनिक अधिकारिभिः च सह उपवेशनं कृतम्। मुख्य निर्वाचनायुक्तस्य ज्ञानेश कुमारस्य नेतृत्वे आयोगस्य दलेन गुप्तधनस्य मद्यस्य मादकद्रव्याणां च समाह्वानं निवारयितुं विभिन्न प्रवर्तन संस्थाभिः सह चर्चा कृता। आयकर विभागस्य प्रवर्तन निदेशालयस्य सीमा शुल्कस्य नार्कोटिक्स न कंट्रोल ब्यूरो इत्यस्य बैंक इत्यस्य रेल विभागस्य अन्येषां प्रवर्तन संस्थानां च अधिकारिणः अस्मिन् सभायाम् उपस्थिताः आसन्। निर्वाचनायोगेन सुरक्षायाः विधिव्यवस्थायाः अन्ताराष्ट्रियसीमायां सीमापारस्य सुरक्षायाः च अपि मूल्याङ्कनं कृतम्। बिहारराज्ये राज्यारक्षकस्य तथा केन्द्रीय सशस्त्र अर्धसैनिकबलानां नोडल अधिकारिभिः सह समन्वयस्य आकलनं कृतम्। चर्चायाः विचारविमर्शस्य च अन्तिमे चरणे मुख्य निर्वाचनायुक्तः बिहारस्य मुख्यसचिवेन आरक्षिमहानिदेशकेन मुख्यनिर्वाचन अधिकारिणा च सह उच्चस्तरीय समीक्षासभाम् आयोजयिष्यति येन विभिन्नेषु विषयेषु विधानसभा निर्वाचनस्य सज्जतायाः मूल्याङ्कनं भविष्यति। बंगालराज्यस्य दार्जिलिंग जनपदे संजाते भूस्खलनात् अतिवृष्टिकारणाच्च 20 जनाः मृताः। ह्यः सायंकालात् गोरखा क्षेत्रीय प्रशासनिक क्षेत्रे निरन्तरं वर्षा भूस्खलनं च भवति। प्रचण्ड वृष्टिकारणात् मिरिक कुर्सोंग रांग भांग पुल बाजार चेति क्षेत्राणि प्रभावितानि जातानि। कालिम्पोंग पर्वतीय जनपदं समेत्य तत्रत्य अन्येषु भागेषु च तीव्रवृष्ट्या भूस्खलनेन च हानिः अभवत्। राष्ट्रपतिः द्रौपदी मुर्मुः उपराष्ट्रपतिः सीपी राधाकृष्णन् प्रधानमन्त्री नरेन्द्रमोदी च पश्चिम बंगाल राज्यस्य दार्जिलिंग जनपदे संजातायां घटनाम् आलक्ष्य दुःखं प्रकटितवन्तः। केन्द्रीय गृहमन्त्री अमितशाह अपि दार्जिलिंग जनपदे संजातायां घटनायां शोकं प्रकटितवान्। नेपालदेशे संजाते प्रचण्ड वृष्ट्या भूस्खलनेन च मार्गाः अवरुद्धाः संजाताः। शुक्रवासरात् अधुना यावत् 47 जनाः मृताः इति अद्य अधिकारिणः सूचितवन्तः। भूस्खलनेन अतिप्रभाविते इस्लाम जनपदे 37 जनाः मृताः। लुप्तजनानाम् अन्वेषणम् उद्धारकार्यं च सजवं प्रचलति। राष्ट्रिय विमानयानानां सेवापि बाधिता परञ्च अन्ताराष्ट्रिय विमानयानानां सेवाः सामान्यरूपेण प्रचलन्ति। प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् नेपालदेशे प्रचण्ड वृष्ट्या जीवनस्य सम्पत्तेः च हानिः दुःखप्रदा अस्ति। एकस्मिन् सामाजिकान्तर्जालीय सन्देशमाध्यमेन श्रीमोदी प्रतिपादितवान् यत् भारतम् अस्मिन् कठोरसमये नेपालदेशस्य जनानां सर्वकारस्य च सह वर्तते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तंत्रांशे अपि उपलब्धो भविष्यति। युवा प्रकरणानां क्रीडा मंत्री डॉक्टर मनसुख मांडवीयः अद्य विश्व शिक्षक दिवसस्य अवसरे नवदिल्ल्यां साइकिल इति द्विचक्रिका विशेष संस्करणे फिट इंडिया रविवासरेषु भागम् अक्रीणात्। कार्यक्रमावधौ डॉक्टर मांडवीयः मेजर ध्यानचंद्र क्रीडांगणात् इंडिया गेट इत्यमुं परितः स्थलेषु साइक्लिंग यात्रायां शतशः शिक्षकेभ्यः छात्रेभ्यः नागरिकेभ्यश्च सह भागं भजितवान्। जनसमूहं संबोधयन् मंत्री सूचितवान् यत् अद्य प्रायः 10,500 तोप्यधिकेषु विभिन्नेषु स्थानेषु फिट इंडिया रविवासरेषु द्विचक्रिका यात्रायाः आयोजनम् अभवत्।
संडे ऑन साइकिल एक मूवमेंट बन चुकी है। सारे देश में हर संडे लाखों की संख्या में लोग साइकिलिंग करके अपने स्वयं को फिट रखते हैं। संडे ऑन साइकिल से देश के नागरिक को और स्टूडेंट को संदेश दिया है कि जीवन में संतुलन बनाना बहुत आवश्यक है।
कृष्णांगार खनन मंत्री जी किशन रेड्डी वर्यः श्वः अरुणाचल प्रदेशे प्रथमस्य वाणिज्यिक अंगार खनन नामचिक नामफुक अंगार खंडस्य भूमि पूजनं करिष्यति। खनन मंत्रालयेन सूचितं यत् राज्ये प्रतिवर्षं 100 कोटि रूप्यकाणां राजस्वानां उत्पादनं भविष्यति इति, येन यूनां कृते वृत्त्यावसरस्य समृद्धेः च सृजनं भविष्यति। मन्त्रालयः सूचितवान् यत् एतत् उपक्रमं प्रधानमन्त्रिणः नरेन्द्र मोदिना EASTE इति पूर्वं सशक्तिकरणस्य अधिनियमस्य सुदृढीकरणस्य परिवर्तनस्य दूरदृष्टिं प्रवर्तयति इति। भारत ऋतु विज्ञान विभागेन अत्यन्तं प्रचण्ड वृष्टेः अनुमानं प्रकटितम्। बिहार पश्चिम बंगाल सिक्किम राज्यान समेत्य स्वः यावत् तत्रत्य केषुचित् अन्येषु स्थानेषु प्रचण्ड वृष्टिः भवितुं शक्नोति। ऋतु विभागेन उक्तं यत् अरुणाचल प्रदेशे असम मेघालय नागालैंड मणिपुर मिजोरम त्रिपुरा चेत्येतेषु क्षेत्रेषु मध्यम वृष्टिः समेत्य केषुचित् स्थानेषु प्रचण्ड वृष्टिः भवितुं शक्नोति। श्वः तमिलनाडु केरल माहे चेत्येतेषु भागेषु स्थितिः यथावदेव भविष्यति। विभागेन जम्मू कश्मीर लद्दाख पश्चिम राजस्थान हिमाचल प्रदेश पंजाबादि राज्येषु सहैव देशस्य उत्तर भागेषु च भूरि वृष्टेः संभावना प्रकटिता। विभागेनोक्तं यत् उत्तर पश्चिम भारते आगामिषु 2-3 दिवसेषु वर्षायाः गतिः संवर्धयिष्यति। ब्रिटेन देशस्य प्रधानमंत्री कीर स्टार्मरः अस्य मासस्य 8 दिनांकादारभ्य 2-दिवसीय भारतस्य आधिकारिक यात्रायाम् आगमिष्यति। इदं प्रधानमन्त्रिणः स्टार्मर वर्यस्य भारतस्य प्रथमं आधिकारिकं भ्रमणं भविष्यति। विदेशमन्त्रालयेन उक्तं यत् अक्टूबर मासस्य 9 दिनांके मुम्बई नगरे प्रधानमन्त्री नरेन्द्र मोदी तस्य यूके समकक्षी च भारत यूके व्यापक सामरिक सहभागित्वस्य अन्तर्गतस्य विविध क्षेत्रेषु प्रगत्याः समीक्षा विधास्यन्ति, यत् 35-2000 वर्षस्य दृष्ट्याः प्रारूपमस्ति। इदं व्यापार निवेशः प्रौद्योगिकी नवान्वेषणं रक्षा सुरक्षा जलवायु ऊर्जा स्वास्थ्यं शिक्षा जनसंपर्कः इत्यादिषु प्रमुखस्तम्भेषु कार्यक्रमाणाम् उपक्रमाणां च केन्द्रीकृतं कालबद्धं च 10-वर्षीयं कार्ययोजना अस्ति। प्रधानमन्त्री नरेन्द्र मोदी प्रधानमन्त्री स्टार्मर च मुंबई नगरे वैश्विक फिनटेक उत्सवस्य 6th संस्करणे भागं गृह्य मुख्य भाषणं करिष्यतः। अद्य नवदिल्ल्यां समाप्यमाने विश्व पैरा एथलेटिक्स चैंपियनशिप प्रतियोगितायां भारतस्य पैरा क्रीडकाः उत्कृष्ट प्रदर्शनेन 18 पदकानि समर्जितवन्तः। भारतम् अद्य पर्यन्तं 6 स्वर्णपदकैः सह 18 पदकं प्राप्नोत्, येषु एकता भयानः ह्यः F-51 क्लब थ्रो इत्येतस्मिन् वर्गे 18तमं पदक विजेत्री अभवत्। क्रिकेट क्रीडायाम् अद्य ICC महिलानाम् एकदिवसीय क्रिकेट विश्व चषक स्पर्धायाम् कोलंबो नगरे भारत पाकिस्तान देशयोः मध्ये स्पर्धा सम्प्रति प्रचलति। पाकिस्तान दलेन पणकं विजित्य प्रथमं क्षेत्ररक्षणं चितम् इति वार्ताः।